वैश्वानराज पृथपादसे विपोरत्ना विधन्त धरुणे शुगातवे अग्निर्हि देवां अमृतो दुभस्यत्यथा धर्माणि सनतान दूदुषत अन्तर्ज्योतो रोदसी तस्म ईजते होता निषत्तो मनुषः पुरोहितः क्षयम् बृहन्तम् परिभूषतिद्युभिर्देवेभिरग्निर्षितो धिजावसुः केतुञ्जज्ञानाम् विदधस्य साधनम् विप्रासो अग्निम् महयन्त चित्तिभिः अपांसिजस्मिन्नधिसन्दधुर्गिरस्तस्मिन् सुम्ना निजमान आचके पिता यज्ञानामसुरो विपश्चिताम् विमानमग्निर्वयुनम् च बाघताम् आविवेशरोदसी भूरिपर्पसा पुरप्रियो भन्दते धामभिः कविः चन्द्रभग्निम् चन्द्ररथम् हरिव्रतम् वैश्वानरमः सुषदम् स्वरविदम् विगाहम् तोर्णिम् दविषेभिराव्रतम् भोर्णिम् देवास इह सुश्रियम् दधुः अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञम् पुरुपेश सन्धिजा रथिरन्तरीजते साधदिष्टिभिर्जीरोदमो न अभिषस्ति चातनः अग्ने जरस्वस्वपत्य आजुञ्जोर्जाबिन्वस्वसमिषो दिदेहिनः वजांसि जिन्वबृहतश्च जाग्रव उषिग्नेवादामसि सुक्रतुर्विपाम् विश्वदी जह्वमतिथिर्नरः सदा जन्तारम् धीनामुषिजम् च बाघता अध्वराडाञ्चेतनम् जातवेदसम्प्रशम् सन्ति नमसा ज्योतिभिर्वृधे विभावा देवस्वरडः परिक्षितेरग्निर्बभोवशवसा सुमद्रथः तस्यौ व्रतानि भूरिपोषिणो भजमुपभोषे मदम आसुवृक्तिभिः वैश्वानरतवधामान्या च केजेभिः स्वर्मिदभवो विचक्षणा जात आपृणो भुवना निरोदसी अग्नेता विश्वा परिभोरसित्मना वैश्वानरस्य दंसराभ्यो बृहदरिणादेकस्वपस्य जा कविः उभा पितरा महजन्न जायताग्निर्द्यावा पृथिवी भूरिरेतसा